अथ बोधिचित्ता प्रमादो नाम चतुर्थः परिच्छेदः। एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः। सहसा यत्समारब्धं सम्यग् यद्विचारितं तत्र कुर्यान्न वेत्येवं प्रतिज्ञायापि युज्यते। विचारितं तु यद्बुद्धेर्महाप्राज्ञैश्च तत्सुतै मयापि च यथाशक्ति तत्र किं परिलम्ब्यते। यदि चैवं प्रतिज्ञाय साधयेयं न कर्मणा एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति। मनसा चिन्तयित्वापि यो न दद्यात् पुनर्नरः स प्रेतो भवतीत्युक्तम् अल्पमात्रेऽपि वस्तुनि। किमुतानुत्तरं सौख्यम् उच्चै उद्घुष्य भावतः जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति। वेत्ति सर्वज्ञ एवैताम् अचिन्त्यां कर्मणो गतिं यद्बोधिचित्तत्यागेऽपि मोचयत्येव तां नरा। बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसि यस्मादापद्यमानोऽसौ सर्वसत्त्वार्थहानिकृत्। योऽप्यन्यक्षणमप्यस्य पुण्यविघ्नं करिष्यति तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थघातिनः। एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवे अशेषाकाशपर्यन्त वासिनां किमु देहिनाम्। एवमापत्तिबलतो बोधिचित्तबलेन च दोलायमानः संसारे भूमिः प्राप्तौ चिरायते। तस्माद्यथा प्रतिज्ञातं साधनीयं मयादरात् नाद्यश्चेत् क्रियते यत्नस्तलेनास्मि तलङ्गतः। अप्रमेयागता बुद्धः सर्वसत्त्वगवेषकाः नैषामहं स्वदोषेण चिकित्सागोचरं गतः। अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयाम्। कदा तथा गतोत्पादं श्रद्धां मानुष्यमेव च कुशलाभ्यासयोग्यत्वम् एवं लप्स्येति दुर्लभम्। आरोग्यदिवसं चेदं सभक्तं निरुपद्रवम् आयुक्षणं विसंवादी कायो याचितकोपमः। न हीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः अलभ्यमाने मानुष्ये पापमेव कुतः शुभम्। यदा कुशलयोग्योऽपि कुशलं न करोम्यहम् अपायदुःखैः सम्मूढः किं करिष्याम्यहं तदा। अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः हतः सुगतिशब्दोऽपि कल्पकोटिशतैरपि। अत एवाह भगवान् मानुष्यम् अति दुर्लभम् महार्णव युगच्छिद्र कूर्म ग्रीवार्पणोपमम्। एकक्षण कृतात् पापात् अवीचौ कल्पमाश्यते अनादिकालोपचितात् पापकाशुगतौ कथा। न च तन्मात्रमेवासौ वेद इत्वा विमुच्यते यस्मात् तद्वेदयन्नेव पापमन्यत् प्रसूयते। नातः परावञ्च नास्ति न च मोहोऽस्त्यतः परः यदिदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया। यदि चैवं विमृश्यामि पुनः सीदामि मोहितः शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः। चिरं धक्षति मे कायं नरकाग्निषु दुःसहः पश्चात्तापनलश्चित्तं चिरं धक्षत्यशिक्षितम्। कथञ्चिदपि सम्प्राप्तो हितभूमिं सुदुर्लभां जानन्नपि न नीयेऽहं तानेव नरकान् पुनः। अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः न जाने केन मुह्यामि कुत्रान्तर्मम तिष्ठति। हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः न शूरा न च ते प्राज्ञा कथं दासि कृतस्मितैः। मच्चित्तावस्थिता एव घ्रन्ति मामेव सुस्थितः तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुताम्। सर्वे देवा मनुष्याश्च यदि सुर्मम शत्रवः तेऽपि नाविचिकं वह्निं समुदानयितुं क्षमः। मेरोरपि यदा सङ्गान् न भस्माप्युपलभ्यते क्षणाक्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः। न हि सर्वाण्यशत्रूणां दीर्घमायुरपि दृशम् अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणाम्। सर्वे हिताय कल्पन्ते आनुकूल्येन सेवितः सेव्यमानास्त्वमी क्लेशा सुतरां दुःखकारकः। इति सन्ततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवे। भवचारकपालका इमे नरकादिष्वपि बद्ध्यघातका मतिवेश्मनिलोभपञ्जरे यदि तिष्ठन्ति कुतः सुखं मम। तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहता समक्षम्। स्वल्पेऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य नयन्ति निद्रा। प्रकृतिमरणदुःखितान्धकारान् रणशिरसि प्रसभं निहन्तु मुग्रा अगणित सरसक्ति घात दुखा न विमुखता मुपयन्त्य साधयित्वा किमुत सतत सर्वदुःख हेतुन् प्रकृतिरिपुन् उपहन्तुमुद्यतस्य भवति मम विषाद दैन्यमद्य व्यसनसतैरपि केन हेतुना वै अकारणेनैव रिपुक्षतानि गात्रेष्वलङ्कारवदुद्वहन्ति महार्थसिद्धै तु समुद्यतस्य दुःखानि कस्मान् मम बाधकानि स्वजीविका मात्र निबद्धचित्ता कैवर्त चण्डाल कृषीवलाद्या सीतातपादिव्यसनं सहन्ते जगदहितार्थं न कथं सहेहम् दशदिग्व्योमपर्यन्त जगत्क्लेशविमोक्षणे प्रतिज्ञाय मदात्मापि न क्लेशेभ्यो विमोचितः आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा अनिवर्ती भविष्यामि तस्मात् क्लेशवधे सदा अत्र ग्रही भविष्यामि बद्धवैरस्य विग्रही अन्यत्र तद्विधात् क्लेशात् क्लेशघातानुबन्धिनः गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे नत्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम् निर्वासितस्यापि तु नाम शत्रुर् देशान्तरे स्थानपरिग्रहस्य यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशीतु क्वासौ यायान्मन्मनस्थो निरस्तः स्थित्वा यस्मिन्मद्वदर्थं व्यतेत नोद्योगो मे केवलं मन्दबुद्धे क्लेशाप्रज्ञा दृष्टिसाध्यावराकः न क्लेशविषये सुनेन्द्रियगणे नाप्यन्तराले स्थिता नातोऽन्यत्र कुह स्थिता पुनरमी मथ्नन्ति कृत्स्नं जगत् मायैवेयमतो विमुञ्च हृदय त्रासं भजस्युद्यमम् प्रज्ञार्थं किमकाण्ड एव नरके स्वात्मानमाबाधसे एवं विनिश्चित्य करोमि यत्नं यथोक्त शिक्षा प्रतिपत्ति हेतोः वैद्योपदेशात् चलतः कुतोऽस्ति भैषज्य साध्यस्य निरामयत्वम् वैद्योपदेशात् चलतः कुतोऽस्ति भैषज्य साध्यस्य निरामयत्वम् वैद्योपदेशात् चलतः कुतोऽस्ति भैषज्य साध्यस्य निरामयत्वम् इति श्री शान्तिदेव विरचिते बोधिचर्यावतारे बोधिचित्ता प्रमादो नाम चतुर्थः परिच्छेदः ॐ